इदानीं गतवर्गे द्योत्यादिगण अजन्तधातूनां विषये अस्माकं चर्चा समाप्ता. अत्र इदानीम् इगन्तधातूनां कृते सम्पूर्णदृष्टिः इदानीं वयं द्रक्ष्यामः. तत्रापि अस्माभिः तत्र गतरविवासरे अस्माभिः तत्र चर्चितं संक्षिप्ते, इकारान्तधातुः, उकारान्तधातुः, ऋकारान्तधातुः, ऋकारान्तधातुः अस्ति चेत् किं किं कार्यं भवति अजादि अपि प्रत्ययपरे. तर्हि अद्य एकवारं करपत्रं पठिष्यामः, समापयिष्यामः. तदनन्तरम् अग्रिमरविवासरे सन्धिविषये कार्यम् आरभामहे. अस्तु, तर्हि इदानीम् आरभामहे. मीना महोदय पठतु.
इकारान्तानाम् उकारान्तानां चन्द्राणाम् अजादि अपि समग्रचिन्तनं वा?
आम्.
एवं वा? इति योगः अस्ति, इत्यस्ति लघुयोगः, अतः द्वतः इति व्यवस्था. संस्कृतभाषायां यत्र कश्चन इक् वर्णः अस्ति, परश्च कोऽपि अच्वर्णः, तत्र अव्यवहितस्थितायाम् इक् स्थाने यन् आदेशः भवति इति अस्माकं सामान्यनियमः. इको यन् अचि इति सूत्रम् इकः स्थाने यन् स्यात् अचिसंहितायां विषये इति प्रसिद्धा वृत्तिः. यन् सन्धिः इति वदामः. अतः इकारः प्राक् परश्च कोऽपि स्वरः संहितायां विषये ई स्थाने यकारः. उकारः प्राक् परे कोऽपि स्वरः संहितायां विषये ऊ स्थाने वकारः इति सामान्यम्. परन्तु धातुविषये वार्ता भिन्ना भवति. तिङन्तपदस्य निर्माणावस्थायां सामान्यं भिन्नमिति. तत्र इकोयमशि इति सूत्रं प्रबाद्य अचिष्णु ब्रूयुवां. बहु ध्वनिः अस्ति महोदय.
न, अहं शक्नोमि, अहं श्रोतुं शक्नोमि.
ध्वनिः नास्ति भगिनि, सम्यक् एव अस्ति.
गतवर्गे
इदानीमपि अस्ति, किञ्चित् मध्ये मध्ये आगच्छति ध्वनिः आगच्छति. अस्तु,
तत्र इको एनर्जि इति सूत्रं प्रभाद्य अचिष्णु धातु ब्रुवां युवर् यङ् युवङ् इति सूत्रेण इयङ् उवङ् च सामान्यं भवति. अनेन सूत्रेण अजादि प्रत्ययेषु इकारान्तधातुरूपि अङ्गस्य इकारस्य स्थाने इयङ् आदेशः, उकारान्तधातुरूपि अङ्गस्य च उकारस्य स्थाने उवङ् आदेशः भवति. अयं सामान्यनियमः, परन्तु अपवादः सन्ति. अपि च इकारान्तानां उकारान्तानां च सूत्राणाम् आकृतिः भिन्ना, अतः जनानां कृते भ्रमात्मकः विषयः. तर्हि अत्र तस्य समग्रं चिन्तनं कुर्मः, येन विषयः पूर्णतया स्पष्टः स्यात्.
तर्हि इको यणचि इति सर्वसामान्यं सूत्रम् अस्ति, परन्तु धातु प्रथमभाग धातु अस्ति, तदनन्तरम् अजादिप्रत्ययः अस्ति चेत् सामान्यसूत्रम् इति इको यणचि नास्ति, परन्तु अचिष्णु धातु ब्रुवां युवोर् यङ् उवङ्गौ इति अस्ति. नाम ई स्थाने अथवा उ स्थाने यण् इति आह प्रत्याहारः नास्ति, अपि तु ई स्थाने यङ् उ स्थाने उवङ् इति भवति. धातु अस्ति, तस्य अन्ते इकारः अस्ति चेत् इयङादेशः, उकारः अस्ति चेत् उवङ् आदेशः, तस्य अनन्तरम् अजादिप्रत्ययः अस्ति चेत् इति अस्ति.
सूत्राणि
तत्र अस्तु. धन्यवादः महोदय. तर्हि अत्र सर्वसामान्यं सूत्रम् अचि अचिष्णु धातुभ्रुवां यगोर्यम् उवङ्गौ इति तु इदानीम् अस्माभिः बहुवारं पठितं. तर्हि अहं चिन्तयामि यत् सर्वे जानन्ति. अग्रे पठामः. तत्र रघुपतिमहोदय पठतु.
सूत्राणि इ इति एकवारं पठामि तत्र
केवलं प्रथमवाक्य
अन्तिमवाक्य अस्तु अस्तु अतिष्ठु धातु ब्रुवाङ् इवोर्यङ् वङ्गौ इति ष्णु प्रत्ययान्ताङ्गस्य इत्युक्ते स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्तधातुरूपी अङ्गस्य भूप्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् वङ् च आदेशो भवति अजादिप्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति युवोः ष्णु धातुभ्रुवाङ् अङ्गानाम् इयङ् वङ्गौ अचि
एकवारम् अर्थं वदतु सूत्रस्य
अत्र इति अत्र अचिपरे अचि निमित्तमस्ति इदानीम् इयङ् वङ् आदेशः भवति कस्य इत्युक्ते अत्र ष्णु इति प्रत्ययान्त अङ्गस्य इति अस्ति ष्णु प्रत्ययान्त अङ्गस्य अपि च धातुरूपी अङ्गमस्ति चेत् अत्र इकार उकार अस्ति चेत् धातुरूपी अङ्गमस्ति चेत् इकार उकारान्त धातुरूपी अङ्गम् अत्र प्रत्ययः न भवेत् प्रत्ययान्तङ्गस्य ष्णु एव भवेत् अनन्तरम् एक भ्रू इति भ्रू इति प्रातिपदिकात् इयङ् वङ् आदेशः भवति इति अस्ति अचिपरे
तर्हि भ्रू प्रातिपदिकम् इकारान्त उकारान्तधातु तदनन्तरं ष्णु प्रत्ययान्त अङ्गम् अस्ति चेत् इयं स्थाने भवति अजादिप्रत्ययपरे इति सामान्यसूत्रमस्ति इकारान्त उकारान्त धातूनां कृते अस्ति तस्य प्रथमः अपवादः किमस्ति कः अस्ति पठतु
प्रथमः अपवादः तत् इणो यण् इति अस्ति तत्र दत्तमस्ति इण् धातोः यणादेशः भवति अजादिप्रत्यये परे इणः षष्ट्यन्तं यण् प्रथमान्तं द्विपदविधं सूत्रम् अचिष्णु धातु ब्रुवाङ् युवर्योङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति इणः अङ्गस्य यण् भवति
अर्थं किम्
अत्र इगन्त इकारान्तधातुरूपी अङ्गमस्ति एतत्तु धातुरूपी अङ्गमस्ति अतः तत्र अचिष्णु धातुब्रुवाङ् इत्यस्य प्रसक्तिः अस्ति परन्तु इयङादेशः भवितुं भवति स्म परन्तु तत् प्रबाद्य इदानीम् इयणादेशः भवति इण् गतौ इत्यस्य यणादेश यकारः भवति यणादेशः भवति अत्र
अस्तु
अतः प्रथम इण् केवलं तत्र परिगणित इण् इति धातु इण् गतौ इत्यस्य एव कृते अस्ति
अत्र प्रत्यय पित्वा पित्वा इति न चिन्तनं
न न न परन्तु सूत्रं तु न वदति परन्तु पित् अस्ति चेत् तु तत्र गुणकार्यं भवितुं शक्नोति खलु
इकारस्य उकारस्य गुणः भवति ओ भवति अथवा ए भवति अतः न
भवति तत्र केवलं तत्र प्रसक्तिः अस्ति
किल यत्र गुणस्य प्रसक्तिः नास्ति तत्र सामान्यसूत्रम् अचिष्णु तत्र तस्य प्रथम अपवादः इणोयण् नाम इण् धातु अस्ति चेत् इयं न भवति अपि तु यकारः आगच्छति द्वितीय
अजादि अपि अस्ति चेत् भवति इति अस्ति
न तथा न चिन्तयतु गुणस्य प्रसक्तिः नास्ति चेत्
आमां सत्यम् अस्तु अस्तु यत्र कुत्रापि भवितुमर्हति अस्तु
अस्तु अग्रे ऐरणेकाचौ सूत्र इदमपि प्रथमवाक्यम् अन्तिमवाक्यं
अस्तु ऐरणेकाचौ असंयोगपूर्वस्य असंयोगपूर्व अनेका इकारान्त अङ्गस्य यणादेशः भवति अचिपरे इति अस्ति अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् भवति इति अस्ति एतत् वदति इकारान्तधातुरूपी अङ्गं यदस्ति असंयोगपूर्वः भवेत् असंयोगपूर्वः भवेत् अपि च अनेकाश् भवेत् तर्हि तत् इकारस्य यणादेशः भवति इति अस्ति एतदपि अचिष्णु धातुपुराङ् युवरियङ्गौ इत्यस्य अपवादमस्ति
तर्हि इकारान्तु धातु परन्तु कीदृशः धातु अनेकाच अपि च असंयोगपूर्व तथा यथा अपि पठितं खलु ज्योतिर्दिगणे दिधि इकारान्तधातुः अस्ति अनेकाच् अस्ति असंयोगपूर्व अतः अस्य सूत्रस्य प्रसक्तिः अस्ति परन्तु जिव्रि जिव्रि मध्ये संयोगपूर्वं नास्ति अतः अस्य सूत्रस्य प्रसक्तिः न भवति
न भवति
तर्हि तत्र एतादृश अस्ति चेत् यण् भवति अच् प्रत्ययपर्यन्तं
आम्
चक्रवर्षिणु इति
इकारस्य उकारस्य भिन्नमस्ति अग्रे अस्ति
एरन् एका च अस्ति खलु एः अनेका च एः इत्युक्ते किम् इकारान्त अस्तु तर्हि एतादृशी स्थितिः अस्ति इकार इकारान्त अङ्गस्य धातोः रूपी धातुरूपी अङ्गस्य किमस्ति सर्वसामान्य अकिष्णु प्रथम अपवादः इनोयण् द्वितीय अपवादः एरनेका च इदानीम् अग्रे गच्छामः धन्यवादः महोदय विजया महोदय पठतु
उदाहरणं किं वदामि महोदय
वदामि खलु ज्योत्यादिगणे विधि धातुः अस्ति विधि विधि एरनेका इकारान्त अस्ति अनेका च अस्ति असंयोगपूर्व अपि अस्ति अतः अस्य सूत्रस्य कार्यं भवति विधि विधि योगः अति किम् अस्ति बिभ्यति अग्रे विजया महोदय पठतु उ प्रसङ्गे तत्रापि एकनिमिषं महोदय सर्वसामान्यमस्ति अचिष्णुधातु ब्रुवां नाम उकार अस्ति चेत्
खलु
हा पठितम् अग्रे अपि गच्छतु उष्णुवोः इति पठतु केवलं प्रथमवाक्यम् अन्तिमवाक्यम्
उष्णुवोः सार्वधातुके हू धातुः च अनेका च स्नुप्रत्ययान्तम् अङ्गं च तयोः असयोगपूर्वस्य अङ्गस्य अङ्ग अन्तस्य उकारस्य स्थाने यन् आदेशः भवति अजादि सार्वधातुकप्रत्ययपरे अस्ति चेत् तत्र अनुवर्तिसहितसूत्रम् अनेकाचः विष्णोः असंयोगपूर्वस्य ओः अङ्गस्य यन् अस्ति सार्वधातुके तत्र हु इति युगत्यादिगणे अस्ति चेत् अनन्तरं सु इति स्वादिगणे अस्ति चेत् असंयोगपूर्वस्य ऊ वर्णस्य स्थाने अजादि सार्वधातुकः अस्ति चेत् तत्र प्रत्ययपरे यन् आदेशः भवति
इदानीं सर्वसामान्यम् अतिष्णु परन्तु यदि हू धातु अस्ति हू धातु ज्योत्यधिगणस्य हू धातु अस्ति खलु अपि च स्नुप्रत्ययान्तम् अङ्गम् अस्ति यः असंयोगपूर्व अस्ति यत् असंयोगपूर्वमस्ति तर्हि हू धातु अथवा अनेका च स्नुप्रत्ययान्त असंयो अङ्गं यः यस्य उकारः असंयोगपूर्व अस्ति हू धातु अपि च अनेका च स्नुप्रत्ययान्त अङ्गं यस्य उकारः असंयोगपूर्व अस्ति तस्य अपि उकारस्य स्थाने यण् भवति कदा अजादि सार्वधातुकप्रत्ययपरे सार्वधातुकप्रत्ययपरे तर्हि अत्र प्रथमभेदः कः अस्ति एरनेकाचो इति सूत्रस्य अपेक्षया प्रथमः तु अत्र उकार उकारकृते अस्ति एरनेकाचु इकार इकारकृते अस्ति द्वितीय अस्ति यत् अत्र अपि अनेका तत्रापि अनेका अत्र अपि स्नुप्र अत्र अपि असंयोगः तत्रापि उष्णः परन्तु एरनेकाचो अस्ति तस्य निमित्तमस्ति कीदृशः अपि कीदृशः अपि अजादिप्रत्ययः परन्तु पुष्णुवोः अस्य निमित्तम् अस्ति अजादि सार्वधातुकप्रत्ययः केवलं सार्वधातुकप्रत्ययः आर्धातुकप्रत्ययः अस्ति चेत् उष्णुः सार्वधातुके कार्यं न करोति इति तत्र चिन्तनीयं तर्हि अत्र एकः एव अपवादः अस्ति उष्णुवोः सार्वधातुके तथा नास्ति चेत् सर्वत्र अचिष्णु इति कार्यं करोति तर्हि आगच्छन्ति वा
हा महोदय तत्र प्रथमम् एरणेकाचु इति सर्वत्र भवति परन्तु अत्र सार्वधातुके प्रत्ययपरे एव उष्णु भवति तद्
अत्र किमपि अस्ति अत्र अग्रे अजादि कित्मि प्रत्ययपरे पश्यतु सूत्रे कित्मित् लिखितं नास्ति परन्तु नास्ति अत्र गुणस्य प्रसक्तिः अस्ति तत्र गुणः करणीयः यतोहि गुणसूत्रं यदस्ति सार्वधातुकार्धातुकयोः तत् परसूत्रमस्ति अतः तस्य कार्यं भवति यत्र गुणः न भवति अपि नाम तर्हि आहत्य यत्र गुणः नास्ति तत्र एव अचिष्णु इणोयण् इरनेकाचो उष्णुवो इति कार्यं कुर्वन्ति तर्हि अत्र टेबल् अस्ति, तत्र टेबल् मध्ये किमपि नास्ति, यत् अस्माभिः पठितं तदेव लिखितमस्ति, अतः एकवारं गृहे एव सर्वे पठन्तु, नूतनं किमपि नास्ति। अस्तु, तर्हि अग्रे तत् तदपि लिखितमस्ति, सामान्यम् अचिष्णु, अपवादः इनोयण् इरणेकाचो इति अस्ति। तर्हि अत्र अग्रे अपि किमस्ति, इकारान्त उकारान्त अत्र उदाहरणमस्ति, विधातुः अस्ति खलु, विधातु अदादिगणे विधातुः अस्ति, सामान्यमस्ति, अतः अचिष्णु कार्यं करोति, वियोगः अन्ति वियन्ति, परन्तु तत्रैव इण् धातु अस्ति चेत् इयोगः अन्ति, तत्र इयन्ति इति न भवति, अपि तु यन्ति इति भवति, इकारस्थाने इयङ् न आगच्छति, अपि तु यकारः एव आगच्छति। तदेव अग्रे अस्ति, अनेकाश धातु अस्ति चेत् अचिष्णु धातु ब्रुवाम्, अत्र गिर्रि अस्ति खलु, गिर्रि, पेप्रि, शेषरि, चेक्रि, अत्र
कुत्र पठति महोदय?
अत्र अस्ति खलु अनेकाच सामान्यशास्त्रम्, पश्यति वा?
अग्रिममस्ति, अग्रिममस्ति भगिनि, यन्ति इति अनन्तरम् अनेकाच सामान्यशास्त्रम् अत्र
प्राप्नोति वा?
अग्रिम एव अस्ति, अग्रिम एव अस्ति, एकाच अनेकाच इति अलग
अजादि किति इति परे इति अस्ति, एका च अनेका च, तदनन्तरं सामान्यम् अचिष्णु
सामान्यशास्त्रम्
अपवादनन्तरम् एका च सामान्यशास्त्र अस्तु महोदय,
धन्यवादः। सर्वत्र अष्टिषु धातु ब्रुवाम् इति अस्ति, तस्य एका च विशेषशास्त्रम् एकः एव अपवादः इण् गतौ, इयं स्थाने इयं न भवति, अपि तु यण् भवति, तदनन्तरम् अनेकात् सामान्यम् अस्ति चेत् तदपि अचिष्णु, यथा झिरि, पेप्री, शेषरी, सर्वत्र अत्र अनेकात् अस्ति, परन्तु संयोगपूर्व अस्ति खलु, संयोगपूर्व नास्ति, अतः अचिष्णु कार्यं करोति, झिरि मध्ये जिव्रियोगः अति जिव्रि अति इति भवति।
महोदय अत्र अपवादः एकाचन अपवादः
एकधातु एव अस्ति
एव उदाहरणं वा?
आम्
महोदय, निमित्तत्रयं सन्ति किल अत्र, अत्र ये एकः त्यजति चेत् अपि सूत्रं न प्रसक्ति,
एक सर्वान्
संयोगः
अथवा
एक
एकमेवं स्वनिमित्तं नास्ति चेत् अचिष्णुकार्यं कार्यं
करोति।
तर्हि परन्तु अत्र पश्यतु अनेका च विशेषशास्त्रम्, अनेका च विशेषशास्त्रं, तत्र यदि संयोगपूर्व अनेका च अस्ति चेत्, यथा चिकि अस्ति, दिभि अस्ति, तत्र यण् भवति, यतोहि असंयोगपूर्व अस्ति, चिक्यति, चिकियति इति न भवति, अपवादः अस्ति। सर्वे अवगच्छन्ति वा?
आम् महोदय,
आम् महोदय, अवगच्छामि, किन्तु
तर्हि इदानीं बाध्यबाधकभावः इति लिखितमस्ति, तदेकवारं पठिष्यामः, तदपि अस्माकं परिचितम् अस्ति कार्यं, परन्तु पुनः पठिष्यामः। तर्हि हा, विधि महोदय पठतु बाध्यबाधकभावः।
बाध्यबाधकभावः अजादिषु कित् ङित् प्रत्ययेषु परेषु कीवर्णान्तधातुरूपी अङ्गे आरम्भतः कार्यं सिद्ध्यति चेत् बाध्यबाधकभावः द्रष्टव्यः, यथा
महोदय भवत्या ध्वनिः सम्यक् न भवति।
मम ध्वनिः वा
इदानीम् अस्ति, पूर्वे नास्ति।
तुदादिगणे रियोगः इको यणचि कार्यं करोति इत्यनेन यण् सार्वधातुक अर्थधातुकयोगो इत्यनेन गुणः सार्वधातुकम् अपित् किञ्च इत्याभ्यां गुणनिषेधः अतिष्णु धातु ब्रुवां युवोर् युवङ् वाङ्गौ इत्यनेन इयङ् योग योगः
सर्वदा एतदेव भवति सर्वदा सर्व सर्व सर्वसामान्यमस्ति इकोयणचि तत्प्रभाद्य प्रथमतया द्रष्टव्यं सार्वधातुकार्धातुकयोः सूत्रं कार्यं करोति
गुणं कार्यं करोति वा न वा इति चिन्तनीयं
गुणं तत्र गुणकरणे यत्र गुणः न भवति निति च इति सूत्रेण तदनन्तरम् अचिष्णु धातु ब्रुवां योगोयोगौ इति सामान्यं तदनन्तरम् अग्रे अपवादः इणोयण् अग्रे पठतु
अदादिगणे यन् गतौ ई योगः अन्ति इकोयणसि इत्यनेन यन् सार्वधातुकधातुकयोः इत्यनेन गुणः सार्वधातुकमपि तिङिच्च इत्याभ्याम् इत्याभ्यां गुणनिषेधः अतिष्णु धातु ब्रुवा योरिवङ्गो इत्यनेन यङ् इणो यन् इत्यनेन यन् यन्ति अत्र तु गुणकार्यं नास्ति किञ्चित् च इति सूत्रेण ततः परम् अतिष्णु धातु ब्रुवां योरिवङ्गव अतिसूत्रस्य प्रसक्तिः तु अस्ति किन्तु अपवादेन
श्रूयते महोदय न श्रूयते
न श्रूयते वा
इदानीमस्ति मध्ये मध्ये भवत्याः
ध्वनिः गच्छति भवान् वदतु वा इकोयनचि कार्यं कर्तुं शक्नोति तदनन्तरं गुणकार्यम् अस्ति वा इति द्रष्टव्यम् अत्र तु गुणः नास्ति गुणनिषेधः अतः अतिष्णु धातु ब्रुवां यो दिवङ्गौ इत्यनेन यत्
चिन्ता नास्ति तर्हि किमस्ति यत् तर्हि इनो यण् मध्ये पुनः इको यणचि प्रथमम् तदनन्तरं गुणः भवति न वा द्रष्टव्यं मिति च अस्ति चेत् गुणनिषेधः अचिष्णु धातु ब्रुवां यवोर्योङ्गो कस्य अपि अपवादः इनो यण् अथवा यन्ति इति भवति तथैव
अन्तिमरूपं समानमेव इको यणचि वा इनो यण् वा समानम्
परन्तु इकोयणचि सूत्रात् कार्यं न भवति रूपसमाना अस्ति चेदपि कार्यं तथा नास्ति खलु तत्र सन्धिकार्यं नास्ति अङ्गकार्यमस्ति इकोयणचि सन्धिकार्यमस्ति तदनन्तरं जुहोत्यादिगणे भीधातु अस्ति विधियोगः अपि अत्र इकोयणचि सार्वधातुकार्धातुकयोः इति सूत्रेण पुनः गुणः भवति न वा द्रष्टव्यं तदनन्तरं नितिचैकसूत्रेण निषेधः भवति तदनन्तरम् अचिष्णु धातु ब्रुवाम् इति सूत्रेण इयं भवति परन्तु तत्रापि तस्यापि अपवादः अयनेका च इति सूत्रेण पुनः यण् भवति बिभ्यति इति अस्ति सर्वे अवगच्छन्ति वा अग्रे अग्रे उकार उकारान्त अस्ति तर्हि अत्र सामान्यं सामान्यं किमस्ति पुनः सामान्यमस्ति अतिष्णु एकः एव अपवादः अस्ति कुष्णुः तदेव लिखितमस्ति तथा युयोगः अत्र सामान्यशास्त्रमस्ति खलु युयोगः अन्ति युवन्ति उवङ्गादेशः भवति गुयोगः श गुयोगः अ गुव गुवति इति भवति द्वादिगणे तथैव अस्ति ध्रुव कुव नुव धुव सुव परन्तु संयोगपूर्वः अस्ति चेत् किं करणीयम् तर्हि तत्र सामान्यं कार्यमस्ति अचिष्णु परन्तु यत्र हू धातुः अस्ति अथवा संयोगपूर्वष्णु प्रत्ययान्ताङ्गमस्ति चेत् कार्यं भिन्नं भवति तत्र अग्रे लिखितमस्ति खलु पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते संयोगपूर्वं श्नु प्रत्ययान्तं त्रिशत् योगः श्नु अत्र अपि श्नु प्रत्ययान्तमेव अस्ति परन्तु अत्र संयोगपूर्वः अस्ति अतः कुष्णुवोः अस्य प्रसक्तिः एव नास्ति यतोहि तत्रापि असंयोगपूर्वः अस्ति चेदेव अस्ति अतः अत्र अपि उवङ्गादेशः भूत्वा शक्नुवन्ति सामान्यकार्यम् यथा आप्नुवन्ति सघ्नुवन्ति चम्नुवन्ति सर्वत्र अत्र संयोगपूर्व अस्ति खलु अश्नुवन्ति तृप्नुवन्ति तृप्नुवन्ति अत्र अस्ति अत्र नकार नत्वं किमपि किमर्थं न भवति तृप्नुवन्ति किमर्थं न भवति इति तस्य कृते सूत्रमस्ति श्नुघ्नादिषु च अस्माभिः पूर्वे अपि पठितं तर्हि अत्र मलर् महोदय पठतु श्नुघ्नादिषु च किं वदति
कुत्र पठति महोदय कुत्र
अग्रे एव उपारान्तमध्ये अस्ति खलु सामान्यशास्त्रमस्ति तत्र अग्रे लिखितमस्ति खलु त्रिप् त्रिप् धातु
कुत्र महोदय
परे अत्र अस्ति सामान्यम् अपवादः सामान्यशास्त्रे एव वयम् इदानीम् इदानीं स्मः सामान्यशास्त्रे अत्र श्नुघ्नादिषु च सूत्रमस्ति अग्रे स्क्रोल् करोतु श्नुघ्नादिषु च तत्र एकम् अस्ति त्रिप् धातु अस्ति खलु त्रिप् धातु स्वादिगणे त्रिप् धातु अस्ति तस्य अङ्गं भवति त्रिप्नु अत्र अपि संयोगपूर्वः अस्ति अतः त्रिप्नुवन्ति इति भवति त्रिप्नुवन्ति परन्तु अत्र नकारः किमर्थं न भवति वृषाभ्यां नोणः अट्कुप्वाङ्ग् इति सूत्रेण ऋकारः अस्ति खलु त्रि तदनन्तरं पकारः अस्ति अट् कुक्वाङ्ग् व्यवधानम् अस्ति नास्ति अतः नकारस्य नकारः किमर्थं न भवति तत् कारणमस्ति तृप् धातु श्नुब्धादिगणे अस्ति तर्हि मदर् महोदय श्नुब्धादिषु च सूत्रं पठतु
शुब्धादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशो न भवति शुब्ध आदि एषान्ते शुब्नादयः तेषु शुब्नादिषु शुब्नादिषु सप्तमी अन्तं च अव्ययपदं द्विपदम् इदं सूत्रम्
प्राप्तम्
अग्रे अग्रे आगच्छतु भगिनि
शुब्नादिषु च शुब्नादिषु गणे पठितानां
रसाभ्यां नो नः समानपदे इत्यस्मात् नः नः इत्यनयोः अनुवृत्तिः न बाबू कमि गमि व्यापि इत्यस्मात् न इत्यस्य अनुवृत्तिः तयो इत्यस्मात् अधिकारः अनुवृत्तिसहितसूत्रेषु नः नः न संहितायाम्
अत्र अस्ति महोदय तत्र बहु ध्वनिः भवति मध्ये मध्ये किमपि न श्रूयते तत्र मध्ये स्पष्टं भवति पुनः तत् ध्वनिः भवति क्रीचिङ्ग् सौण्ड्
भवत्याः कृते वा
गृहे नास्ति कत्र तत् प्रायः लैन् मध्ये अस्ति
ओके
अस्तु तर्हि म्यूट् कुर्वन्तु प्रायः म्यूट् अस्ति न जानामि अस्तु परन्तु श्नुघ्नादिषु च यत्र सूत्रमस्ति तत्र श्नुघ्नादिगणे ये ये धातवः सन्ति शब्दाः सन्ति तेषां नकारस्य नत्वं न भवति श्नुघ्नादिषु च नः नः न संहितायाम् इति अस्ति तर्हि त्रिप् धातु श्नुघ्नादिगणे अस्ति अतः तस्य नकारस्य नत्वं न भवति त्रिप्नु एव त्रिप्नुवन्ति एव अस्ति न तु त्रिप्नुवन्ति अग्रे तत्र अग्रे एकवाक्यमस्ति मन्दर् महोदय पठतु ध्येयं यत्
आम् महोदय ध्येयं यत् अचिष्णुधातु भुवां यो योन् योङ्गौ इति सूत्रेण एकमेव विकर्णप्रत्ययान्तम् अङ्गं यस्य उवं भवति स्वादिगणे सुप्रत्ययान्त अङ्गं प्रत्यान्तमङ्गं तदा तदातिरिच्य सर्वे धातवः एव इकारान्ताः उकारान्ताः च उत्तमप्रत्यान्तमङ्गं उवङ् भवति स्वादिगणे एव
एक एव विकरणस्य कृते कार्यं भवति स्वादिगणे नु अस्ति खलु अन्यत्र सर्वत्र केवलं धातु अस्ति तस्य अग्रे साक्षात् प्रत्ययः अस्ति चेत् नाम प्रत्येकविकरणस्य कृते कार्यं न भवति विकरणप्रत्ययः केवलं स्नु प्रत्ययान्तमगमस्ति अन्यथा केवलं धातु एकारान्त उकारान्त धातु अस्ति चेत्
तर्हि तनादिगणे न भवति खलु
तनादिगणे न भवति प्रत्यान्त अस्ति खलु अत्र धातु उकारान्त नास्ति अपि तु स्नु प्रत्ययान्त अपि नास्ति अपि च भ्रू प्रातिपदिकमपि नास्ति अतः सूत्रस्य प्रसक्तिः एव नास्ति अतः पठतु खलु तनु अस्ति खलु तनु तनु इति अङ्गम् अस्ति तस्य तनुयोगः तनु इति अस्ति तत्र किमस्ति तन्वन्ति खलु तत्र तु अचिष्णु एव कार्यं न करोति अतः तत्र तु सर्वसामान्यं सूत्रं यत् अस्ति यद् अस्माभिः अस्ति खलु केच् आल् यत्र कुत्रापि कार्यं न करोति तत्र यतुणस्य कार्यं करोति यत्र किमपि कार्यं न करोति तत्र इक्वर्णस्य कार्यम् अस्तु तर्हि एतदस्ति तदनन्तरम् अस्य विशेषकार्यमस्ति कुष्णुवोः सार्वधातुके तत्र हु धातु अस्ति तत्र तत्र यण् भवति न तु उवङ् तत्र जुहुयोगः अति अस्ति अत्र पश्यतु हु अङ्गम् अस्ति हु धातु अस्ति खलु अतः जुहुयोगः अति अजादि सार्वधातुकप्रत्यये परे जुहुवति इति न भवति अपि तु जुहुवति इति भवति तदनन्तरं तथैव स्नु प्रत्ययान्त अङ्गं संयोगपूर्व अस्ति चेत् चिनु अस्ति तत्र अपि यण् भवति अत्र चिनुयोगः अन्ति चिनुवन्ति न भवति अपि तु चिन्वन्ति तथैव रियोगः स्नु ऋणु ऋण्वन्ति शृण्वन्ति कृण्वन्ति इति अस्ति सर्वे अवगच्छन्ति वा तदनन्तरं पुनः यत् मया इदानीमेव उक्तं सर्वसामान्यशास्त्रमस्ति इकोयणचि यत्र किमपि कार्यं न करोति तत्र इकोयणचि यथा तनुयोगः अन्ति तन्वन्ति षडुयोगः अन्ति क्षण्वन्ति सन्वन्ति मन्वन्ति वन्वन्ति अत्र सर्वत्र किमस्ति स्वनादिगणः अस्ति अङ्गं नाम धातुः अपि नास्ति स्वादिगणीय अङ्गमपि नास्ति केवलं तनादिगणीय अङ्गं यद् उकारान्तमस्ति अतः तत्र केवलं सन्धिः भवति तन्वन्ति क्षण्वन्ति सर्वसामान्यम् इकोयणचि इति लिखितमस्ति सर्वे आगच्छन्ति वा
महोदय
अस्तु तर्हि तदनन्तरम् एकम् अत्र अग्रे गच्छतु किञ्चित् किञ्चित् एकम् अत्र वाक्यमस्ति अचिष्णु धातुर्वां योवोर्यङ् उवङ्गौ इत्यस्य सार्वधातुकलकारेषु आहत्य केषु धातुगणेषु प्रसक्तिः भवति इति वाक्यं दृश्यते वा
आम्
सर्वे
अग्रे अस्ति
तद् अग्रे वयं पठामः कोऽपि अस्ति वा येन न पठितम् इदानीं पर्यन्तं नास्ति खलु विजया महोदय भवती एव समापयतु इदानीं अग्रे अस्ति खलु वाक्यम् अचिष्णु धातुर्वां युवोर्यङ् उवङ्गौ इत्यस्य केषु गणेषु प्रसक्तिः भवति
अत्र सुदादिगणे अस्ति खलु सुदादिगणे रियोगः आ अचिष्णु धातु भ्रुवो भ्रुवां युवो रियङ् ओवङ्ग इत्यनेन इयङ् अर् अस्ति रेपः अस्ति अत्र योगः य योगः अकारः योगः पि अस्ति चेत् अत्र योगः य इति भवति अनन्तरम् आ क्रियते इति भवति भूयजुः श चकारः इत्युक्ते भूयजुः अकारः एव तिष्ठति लशस्य प्रतिष्ठति एव तिष्ठति अत्र अपि तु धातु भो भो एवम् उवं गौ इत्यनेन भूयजुः गकारः योजः उव भवति सूत्रेण अत्र
सर्वत्र
आसन् चेत् एव श्रोतुं
शक्नोति
सर्वम् अपि सर्वे इति अहं चिन्तयामि इदानीं श्रूयते वा इदानीं श्रूयते वा जि
आं भगिनि
आम् इदानीं श्रूयते
परन्तु महोदय अस्ति वा अत्र
अहमपि अस्मि अहमपि म्यूट् करोमि परन्तु न जानामि प्रायः लैन् मध्ये
भाषणं कर्तुं समये एतत् अन्म्यूट् कर्तुं शक्नोति खलु जि
आम् सर्वे म्यूट् कुर्वन्तु केवलं विजया महोदय वदति
आम् महोदय अत्र गुयोगः शकारः गुयोगः अकारः भवति अनुबन्धलोपानन्तरम् अचिष्णुः धातु भ्रुवो युवोर् युवङ् उवङ्गौ इत्यनेन उवङ्ग् आदेशः भवति अतः तत्र गुयोगः गकारः योगः उ भवति अनन्तरम् आयोगः पि अस्ति अनन्तरम् अन्तिमरूपम् अत्र गुवति इति रूपं निष्पन्नं अदादिगणे तत्र तुदादिगणे वयं सर्वे दृष्टवन्तः अनन्तरम् अदादिगणे किमस्ति चेत् इङ् अध्ययने अधि इति भवति अधियोगः ईयोगः अते अत्र अपि अचिष्णु धातु भ्रुवो युवर् इवङ् उवङ्ग इत्यनेन इयङ् आदेशः भवति इयङ् अत्र अस्ति अधियोगः इययोगः अते इति आगच्छति चेत् तत्र एतत् सर्वं मिलित्वा अधीयते इति भवति युयोगः अन्ति अचिष्णु धातु भ्रुवो युवर् इवङ् उवङ्ग इत्यनेन उवङ्ग आदेशः भवति अतः तत्र इ अस्ति यकारः योगः उ अन्ति इति अस्ति एतत् सर्वं मिलित्वा युवन्ति इति अन्तिमरूपं निष्पन्नम् अस्ति पठामि वा जि जि पठामि वा अस्तु स्वादिगणे स्वादिगणे शक् योगः स्नु इति शक्नु इति शक्नुयोगः अन्ति अचिष्णु धातु भ्रुवो युवो इवङ् उवङ्ग इत्यनेन उवङ्ग आदेशः भवति अतः तत्र शक् शक्न् योगः उ भवति अन्ति भवति शक्नुवन्ति इति भवति जुहोत्यादिगणे जुहोत्यादिगणे ह्रि धातुः जिह्रि इति भवति जिह्रि योगः अति तत्र हि स्थाने स्लौ इति सूत्रेण हि हि इति स्थाने अभ्यासस्य कार्यं करोति अतः हि जि हि स्थाने जि आगच्छति अतः तत्र जिह्रि इति भवति जिह्रि योगः अति तत्र अपि अचिष्णुः धातु भ्रुवो युवोर् इवङ् उवङ्गौ इत्यनेन इयङ् आदेशः भवति अतः तत्र जिह्र् जिह्र् इति भवति जिह्र् योगः इय योगः अति जिह्रियति इति अन्तिमरूपं निष्पन्नम् एकः अन्तिमप्रश्नः उदेति केचन उकारान्तदातवः सन्ति येषाम् उवङ्ग् आदेशः न दृश्यते एव सार्वधातुकलकारेषु तत् किमर्थं यथा भूधातुः भुवादिगणे तस्य उवङ्ग् प्रसङ्गः न एव आयाति सार्वधातुकलकारेषु एतावता कारणं प्रायः जानन्ति अत्र विकर्णप्रत्ययः शप् पित् अस्ति सार्वधातुकलकारेषु शप् सर्वदा आयाति अतः धातोः साक्षात् अजादि कित् नित् प्रत्यय सह सम्पर्कः न कदापि भवति अतः एव तत्र कार्यं भिन्नभिन्नं रूपं तिष्ठति तुदादिगणे अदादिगणे अनन्तरं स्वादिगणे जुहोत्यादिगणे
अस्तु तर्हि धन्यवादः तर्हि प्रश्नः अस्ति भूयोगः शप् अस्ति भू अपि उकारान्तधातुः अस्ति शप् मध्ये अतिष्ठति तत्र अपि अजादिप्रत्ययः अस्ति तर्हि अत्र उवङ् किमर्थं न भवति? यत्र प्रश्नः अस्ति प्रश्न अत्र उत्तरमस्ति यत् उवङ्गः न, अत्र गुणस्य प्रसक्तिः अस्ति, यतोहि शप् पित् प्रत्ययः अस्ति, यत्र गुणस्य प्रसक्तिः भवति तत्र परत्वात् गुणः एव करणीयः। अत्र भूयोगः शप् मध्ये भो एव भवति, यत्र गुणस्य प्रसक्तिः नास्ति तत्र एव अचिष्णुधातुः कार्यं करोति इति अस्ति। तर्हि अत्र भू अन्ति, अत्र भूयोगः अन्ति इत्यनोः साक्षात् सम्पर्कः नास्ति एव, यत्र यतोहि अत्र मध्ये अ इति विकरणप्रत्ययः अस्ति, तर्हि साक्षादेव सर्वदा द्रष्टव्यं, साक्षादेव सर्वदा द्रष्टव्यम् इति एव अस्ति। परन्तु अत्र अस्ति आर्धातुकलकारेषु आर्धातुकप्रत्ययेषु इयङ् उवङ्ग अवसरः अर्ह तत्र भवितुं शक्नोति, तत्र अग्रे वयं पश्यामः। तर्हि आहत्य किम् अस्ति? यत्र गुणस्य प्रसक्तिः तत्र गुणः करणीयः, गुणः प्रसक्तिः नास्ति तदैव अचिष्णु भवति। अत्र इकारान्त उकारान्त अङ्गानाम् अजादि अपित्सु समग्रचिन्तनं समाप्तम्। सर्वे अवगच्छन्ति वा?
आम् महोदय।
तर्हि इदानीम् अग्रे गच्छामः, अग्रिमकरपत्रम् उद्घाटयतु। तर धातुपाठे हल् सन्धि तर्हि अत्र एकवारं शृण्वन्तु सर्वे। इदानीम् अस्ति, इदानीं पर्यन्तम् अस्माभिः किं दृष्टं? यत्र यत्र यत् अङ्गमस्ति तत्र अङ्गं यत् अस्ति यस्य नाम तिङ् प्रत्ययात् प्राक् सार्वधातुकलकारेषु यत् अङ्गम् अस्ति, इदानीं पर्यन्तं तदङ्गं सर्वदा अजन्त अस्ति, तस्य अन्ते सर्वदा अच्वर्णः अस्ति। अतः तत्र कुत्रापि नाम स्वरसन्धिः अस्ति तत्र एव तस्य एव प्रसक्तिः भवति। हल् सन्धिः, हल् सन्धिः इत्युक्ते यत्र द्वौ हल् वर्णौ संहितायाम् आगच्छतः, तस्य कदापि प्रसङ्गः न भवेत्, यतोहि प्रथम अङ्गस्य अन्तिमवर्णः हल् नास्ति, अचाद् अच् एव अस्ति। परन्तु इदानीम् अग्रे यथा यदा वयं गच्छामः तत्र अदादिगणे जुहोत्यादिगणे गृहादिगणे यत्र धातुः अजन्त नास्ति तत्र हलन्त धातुः अस्ति चेत् इदानीं हल् हल् वर्णौ एकत्र आगच्छतौ, अतः तत्र किं भवति? अतः तत्र हल् सन्धेः प्रसङ्गः आगच्छति। इदानीं हल् सन्धेः बहवः नियमाः सन्ति। हल् सन्धि इति एक जटिलविषयः अस्ति इति अहं चिन्तयामि, सरलविषयः नास्ति। हल् सन्धिमध्ये बहवः नियमाः सन्ति, अतः इदानीं सर्वप्रथमं हल् सन्धेः नियमान्
भवानपि एवं वदति वा भवती?
अहं चिन्तयामि, जटिलम् अस्ति,
जटिलम् कृते सः
उक्तवान्, न न मम कृते अपि जटिलम् अस्ति, तत्र बहवः नियमाः सन्ति।
एवं सति अस्माकं कृते कथं भवति?
नाम एकवारं तत्र एकवारं वयं पठामः, अभ्यासं कुर्मः, तदनन्तरं तत्र किञ्चित् सरलताम् आगच्छति, परन्तु नियमाः बहवः सन्ति, अतः किञ्चित् तत्र जटिलं कार्यमस्ति, परन्तु चिन्ता नास्ति, अभ्यासं कुर्मः। तर्हि एकवारं हल् सन्धि नियमान् इदानीं वयं पठिष्यामः। अत्र दीर्घविषयः अस्ति, प्रायः निमिषद्वय तत्र मासद्वयं तु सहसा गच्छति एव इति अपि
करपत्रयम् अस्ति,
करपत्रं न चत्वारः सन्ति,
चत्वारि
अत्र अहं चिन्तयामि सः सः अत्र सरल सरलरूपेण अत्र मासद्वयं तु गच्छति एव,
पूर्वं तु सप्तवर्गः
मन्दं मन्दं गच्छेम इति
आमां चिन्ता नास्ति। परन्तु अत्र किमस्ति, केवलम् अत्र धातूनां कृते एव सन्धिनियमाः सन्ति, एते सर्वे नियमाः सुबन्तेषु अपि कार्यं कुर्वन्ति, अतः अत्र एक मुख्यविषयम् अस्ति इति चिन्तयतु। अत्र धातुरूपाणि कथं निष्पन्नं कुर्मः तस्य कृते अत्र सहायकविषयः अस्ति इति मा चिन्तयतु। हल् सन्धि इति मुख्यविषयः अस्ति, अत्र भिन्नविषयः अस्ति, एतत् चिन्तयित्वा एव वयम् अग्रे गच्छामः। अस्तु तर्हि इदानीं धातुपाठे सन्ति धातु धातु तिङन्तरूपाणां विषये धातु यदा अस्ति तस्य कृते कार्याणि कथं भवन्ति इति वयं पश्यामः अस्तु तर्हि इदानीं धातुपाठे हल् सन्धि प्रथमपथम् इति वयं पश्यामः तर्हि वीना महोदय तत्र आरम्भं करोतु
धातुपाठे हल् सन्धिः यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अच् वर्णैः नाम अ आ इ इ उ ऊ ए ऐ इत्येभिः अथवा एभिः हल् वर्णैः यदा प्रत्ययः अच्भिः वर्णैः आरभ्यते अथवा यर् इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हल् सन्धिः न भवति केवलं वर्णसम्मेलनं भवति धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति यथा धा धातु दधा योगः तः दद् योगः तः दत्तः अपि च प्रत्ययः इत्येभिः वर्णैः आरभ्यते तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति हल् सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ अपि च हलः विकारो भवति
तर्हि किं लिखितम्
यत्र धातुतः प्रत्ययाः धातुतः विहिताः सन्ति ते सर्वे आदिमवर्णः वा अच्वर्णैः
आम्
ओ ऐ ए ओ ऐ ऐ इत्येभिः अथवा हल् वर्णैः यर् यवरल यर् व मन तथ यदा प्रत्ययः अच्भिः वर्णैः आरभ्यते अथवा यर् इत्येभिः हल् वर्णैः आरभ्यते बहु ध्वनिः अस्ति तथा धातुः हलन्तः चेदपि हल् सन्धिः न भवति केवलं वर्णसम्मेलनं भवति ध्वनि बहु
वदामि अरे पश्यतु धातु अत्र अङ्गमस्ति तस्य अनन्तरम् अचवर्णः अस्ति धातु अस्ति अङ्गमस्ति धातु अङ्गमस्ति अत्र अङ्गमस्ति तस्य अनन्तरं प्रत्ययः अस्ति प्रत्ययस्य आदिमः वर्णः अचवर्णः भवितुं शक्नोति यथा अ आ इ ई ओ ऊ ए ऐ आदिमः वर्णः हल् वर्णः अपि भवितुं शक्नोति यथा आदिमः वर्णः केवलम् एभिः हल् वर्णैः भवितुं वर्णेषु भवितुं शक्नोति यर् वमन तथ दश तर्हि प्रत्ययस्य आदिमवर्णः अच् वर्णः अस्ति चेत् तत्र किमपि न भवति, केवलं वर्णमेलनं भवति। धातुहरन्तचेदपि किमपि न भवति, केवलं वर्णमेलनं। प्रत्ययस्य आदिमवर्णः य र अस्ति चेदपि किमपि न भवति, केवलं वर्णमेलनम् एव भवति। धातु हलन्त अस्ति चेदपि। तर्हि कुत्र कुत्र हल्सन्धि इति कारणेन नियमः भवितुं शक्नोति, केवलं वर्णमेलनं नास्ति, प्रत्ययः व म न इति व म न इति वर्णैः आरभते चेत्, अथवा त थ ध स इति वर्णैः आरभते चेत्, तत्र एव धातुः अपि अथवा हलन्त अस्ति अथवा विकारात् हलन्त भवति, तत्र एव हल्सन्धेः प्रसङ्गः भवति। नाम धातु हलन्त भवेत्, तस्य अन्ते हल्वर्णः भवेत्, अपि च तस्मात् अनन्तरं प्रत्ययः अस्ति तत् त थ ध स व म न एभिः वर्णैः तत्र वर्णः तत्र प्रत्ययः आरभते, तथैव वर्णमेलनं भवति, तत्र एव हल्सन्धेः नियमं भवति। अस्तु, तर्हि इदानीं नाम किमर्थं केवलं त थ ध स व म न, यतोहि धात्वानन्तरं ये प्रत्ययाः भवन्ति ते एतेषां वर्णानां विहाय एतान् वर्णान् विहाय अन्ये कोऽपि केऽपि अन्ये वर्णाः न भवन्ति एव आदिमौ, केवलं य र व म न तथ ध स इति एव भवन्ति। अतः एतेषां वर्णानां कृते एव इदानीं चिन्तनं भवेत् इति अस्ति। अस्तु, इदानीं ए बिन्दुः अस्ति, मन्दरमहोदय पठतु। धातुः हलन्तः
धातु हलन्तः प्रत्ययस्य प्रथमवर्णः अ आ इ ई उ ऊ ए ऐ य र रेपः वर्णमेलनमेव सन्धि न भवति। बकारः मकारः नकारः चेत् आधिक्येन न भवति।
कुत्रचित् भवति, व म न अस्ति चेत् कुत्रचित् भवति, परन्तु आधिक्येन केवलं वर्णमेलनमेव भवति।
यदा रुन्द रोहन्ति रुन्दन्ति प्रत्ययः अदादिः रुनद् योगः आवावहे रुणदावहे प्रत्यय आदि अदादिः अरुन्द योगः इ अरुन्दि प्रत्ययः इदादिः रुन्द योगः ईद रुन्दीत प्रत्ययः ईदादिः अभिभ्य अभिभय योगः उः अभिभयुः प्रत्ययः उदादिः जाग्र योगः ऊकः जागरूकः प्रत्ययः उदादिः रुन्द योगः ये रुन्दे प्रत्ययः यदादिः रुनद् योगः ऐ रुनदै प्रत्ययः ऐकादिः प्रत्ययः यकारादिः प्रत्ययः रेपादिः ध्वनि अस्ति आधिक्येन सन्धि न भवति। रुन्द योगः वः रुन्द्वः प्रत्ययः वकारादिः रुन्द योगः मह रुन्मह प्रत्ययः वकारादिः यत् योगः नः यत्नः प्रत्ययः नकारादिः। अत्र न सन्धि न भवति महोदय। आम्
सन्धि न, केवलं वर्णमेलनम् अस्ति। तत्र
धातुः
पश्यतु, यत्र धातुः हलन्त अस्ति तस्य अग्रे यथा अजादिप्रत्ययः अस्ति अपि च वमन, तत्र केवलं वर्णमेलनं भवति। इदानीम् अग्रे यत्र वर्णमेलनं न भवति तत्र मेलनं भवति, तद् वयम् अग्रे पश्यामः। इदानीं पर्यन्तं सर्वे आगच्छन्ति वा?
अत्र किमपि कार्यं नास्ति खलु, अतः बहु सुलभमेव.
कस्य प्रश्नः अस्ति वा इदानीं पश्यतु.
न महोदय.
अत्र वर्णमेलनमेव खलु जि, अतः प्रश्नः नास्ति.
आम्. अस्तु तर्हि अग्रे इदानीं वयम् अग्रे गच्छामः. अग्रे इदानीं को अस्ति रघुपतिमहोदय, बि बिन्दु पठतु.
हा महोदय. धातु हलन्तः, धातु हलन्तः प्रत्ययस्य प्रथमवर्णः तथ ध स भवति चेत् तत्र हल्सन्धिः भवति. यथोक्तं हल्सन्धौ हलः विकारो भवति. कुत्रचित् पूर्ववर्णस्य विकारः यथा बिनद्योग ति इत्यस्मिन् बिनत् तकारः भवति, बिदत्ति इति रूपं भवति, दकारस्य तकारः भवति. कुत्रचित् परवर्णस्य विकारः भवति, इदानीं चस्योग ते अस्ति, तत्र परवर्णस्य प्रत्ययस्य एव चकारः भवति, चष्टे इति. कुत्रचित् पूर्वपरयोः विकारः, द्वयोः विकारः भवति, योगति इत्यस्मिन् योगधि धोधि इति रूपम्. अत्र पूर्वपर वर्णस्य द्वयस्य अपि विकारः भवति इति अस्ति. अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यः धातुभ्यः कथं तकारादिप्रत्ययः, तकारादिप्रत्ययः, धकारादिप्रत्ययः, सकारादिप्रत्ययांश्च संयुज्यन्ते इति ज्ञास्यामः इति अस्ति. अत्र हल् सन्धि भवति इति अस्ति. तत्र यथा हलन्तधातुः अस्ति, हल प्रत्ययस्य प्रथमवर्णः अस्ति तथा सकार, सकार तथा द अपि च सकार, तथा हल् सन्धिः भवति इति दत्तमस्ति. कीदृशसन्धिः भवति, भवितुमर्हति.
तर्हि धातुपाठे हल् सन्धि कुत्र?
सूत्रं न दत्तं महोदय, सूत्रं न दत्तम्.
अत्र आगच्छति हल् सन्धि पाठे, धातुपाठे कुत्र कुत्र भवति? तकारादिप्रत्ययः अस्ति चेत् थकारादिप्रत्ययः अस्ति चेत् अस्ति, थकारादिप्रत्ययः अस्ति चेत् सकारादिप्रत्ययः. अतः प्रत्येकस्य कृते एकमेकं करपत्रम् अस्ति अत्र जालपुटे. तर्हि इदानीम् अग्रे प्रत्येकस्य विषये सूत्राणि ये सन्ति तस्मिन् पाठे वयं पठामः. तर्हि इदानीं सी बिन्दु पठतु महोदय.
अस्तु. हल् सन्धिः विधयः चतुर्षु विभागेषु विभक्ताः. प्रथमः अस्ति हलन्तेभ्यः धातुभ्यः लङ्लकारस्य त प्रत्ययः स प्रत्ययश्च इत्यनयोः योजनविधिः. हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः, इत्युक्ते लङ्लकारस्य स प्रत्ययस्य अति स इति सप्रत्ययम् अतिरिच्य, सकारप्रत्ययम् अतिरिच्य. हलन्तेभ्यः धातुभ्यः तकारादिप्रत्ययानां, थकारादिप्रत्ययानाञ्च योजनविधिः, लङ्लकारस्य तप्रत्ययम् अतिरिच्य. हलन्तेभ्यः धातुभ्यः लकारादिप्रत्ययानां योजनविधिः इति अस्ति. चतुर्षु भागेषु विभक्ताः सन्ति.
तत्र प्रथमभागः अस्ति हलन्तधातुः अस्ति, तस्य अनन्तरं लङ्लकारस्य त अथवा स, त स तस्य कृते भिन्न किमर्थं कृतमस्ति? यतोहि त स कीदृशः प्रत्ययः अस्ति अस्माभिः पठितम्. हल्न्याभ्यो दीर्घात् किसि पृक्तं हल् इति भिन्नसूत्रमस्ति, अतः तद् एकः भिन्नबिन्दुः अस्ति. तदनन्तरं हलन्तधातुभ्यः तकारादिप्रत्ययः, तस्य कृते कथं कार्यं भवति? हलन्तभ्यः धातुभ्यः तकारादिप्रत्ययः, तस्य कृते कथं कार्यं भवति? हलन्तधातुभ्यः थकारादिप्रत्ययः, तस्य कृते कथं कार्यं भवति इति एकमेकं प्रत्येककार्यं वयम् अग्रे पठिष्यामः. अस्तु, तर्हि प्रथमकार्यमस्ति डि बिन्दु अस्ति, हलन्तेभ्यः धातुभ्यः लङ्लकारस्य तप्रत्ययः सप्रत्ययश्च नेत्योः योजनविधिः. अस्तु तर्हि विधि महोदय पठतु। विधि महोदय नास्ति
वा?
नास्ति, गतवती।
बतावती वा? विजय महोदय पठतु।
कुत्र इति डि हलन्तेभ्यो हलन्तेभ्यो धातुभ्यो धातुभ्यः लङ्लकारस्य स प्रत्यय स प्रत्यय प्रत्ययः प्रत्ययः चेत् अनयोः योजनविधिः लङ्लकारस्य स प्रत्यय स प्रत्ययो स प्रत्ययः चेत् अनयोः अपृक्तसंज्ञा भवति अतः तयो यो तत्र अतः एव खलु
मुद्रणदोषः
अस्ति अतः तयोः योजनविधिः भिन्नः अपृक्त एकाल् प्रत्ययः यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तसंज्ञा भवति एकश्च असौ अल् एकाल् कर्मधारयः अपृक्तः प्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तमपि त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णम् एकाल् प्रत्ययः अपृक्तः तत्र अपृक्तः एकाल् प्रत्ययः अस्ति चेत् तत्र एकः एव अल्वर्णः अपृक्तसंज्ञा भवति इति एकः तु असौ अल् एकाल् अस्ति इति तत्र किमपि नास्ति अग्रे पठामि वा? अत्र योजनविधौ सोपानत्रयं वर्तते प्रथमबिन्दुः स प्रत्यय स प्रत्यय प्रत्ययः चेत् अनयोः लोपः भवति प्रथमसोपानेन पदं निमित्तम् अतः पदं निमित्तीकृत्य कार्याणि भवति तृतीयबिन्दुः जश्वसन्धिः छत्वसन्धिः च कार्यं भवति उदाहरणम् अत्र पूर्वमेव वयं दृष्टवन्तः भिन्न योगगति अस्ति चेत् तत्र करिच किमस्ति छत्वसन्धिः भूत्वा करिच इति सूत्रं भूत्वा दकारस्य तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति भिन्न भिनत् इति अनन्तरं ति इति प्रत्ययं योजनेन भिनति इति पूर्वमेव वयं दृष्टवन्तः जि
अस्तु महोदय तर्हि किमस्ति किमपि नास्ति वयं वस्तुतः अत्र अपृक्तप्रत्ययः अस्ति सप्रत्ययः सप्रत्ययः इति अपृक्तप्रत्ययः अस्ति अपृक्तप्रत्ययः अस्ति अतः किं भवति एकः एव वर्णः
लोपः भवति
लोपः भवति केन सूत्रेण लोपः भवति महोदय क्षम्यतां भवती कुतः पर्यन्तं पठति
हल्याव्यो दीर्घात् सुचिस्पृष्टम् इति सूत्रेण पठामि जि तत्र प्रथमबिन्दुः अलन्तेभ्यः धातुभ्यः सी सी सम्बन्धीनां प्रत्ययानाम् अपृक्तप्रत्ययानां लोपः भवति हल्याव्यो दीर्घात् सुचिस्यपृष्टं हल् हलन्तात् दीर्घङ्ग्यन्तात् दीर्घबन्धात् च सुतीति इत्येषाम् अपुक्तसंज्ञकस्य हलः लोपः अनेन प्रथमविभक्तौ सु प्रत्ययस्य सु इत्यस्य सकारः लोपः लङि प्रथमपुरुषे सकारः लोपः मध्यमपुरुषे सकारः लोपः च हल् च नी च आप् च तेषाम् इतरेतरद्वन्द्वः अल्याभ्यः अल्यापः इत्येभ्यः अल्याभ्यः तेषां समहारद्वन्द्वः सुतिः अपृक्ते सुतिस्यपृक्तं हल्याज्ञः हल्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्यपृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदम्
ध्वनिः
लोकोपयोगि इत्यस्य लोपः इत्यस्य अनुवृत्तिः अत्र कर्मणि प्रयोगेण लुप्यते इति रूपविकारः भवति. अनेकसहितसूत्रं दीर्घात् हल्याभ्यो सूतीसि अपृष्टं हल् लुप्यते तावदेव
तर्हि अस्माकं परिचितं सूत्रमस्ति. किमस्ति सूत्रं? हलन्त अङ्गम् अस्ति. हलन्तम् अङ्गम् अस्ति यथा तस्य अन्ते हल् वर्णः अस्ति. अपि च यस्य अन्ते दीर्घ आकारः नाम आबन्त आबन्त यथा लता अस्ति खलु लता दीर्घ आबन्त अथवा दीर्घ नीप नदी एतादृश किमपि अङ्गम् अस्ति किमपि अङ्गम् अस्ति तस्मात् अनन्तरं तस्मात् यदि सु सु औजस् मध्य सु ति तिप्रत्ययः सि तिप्रत्ययः तस्य अपृक्तवर्णः अस्ति तस्य अपृक्तवर्णः अस्ति चेत् यथा लङ्लकारे तिप्रत्ययस्य अपृक्त त अस्ति अपृक् इत्युक्ते एकवर्णः यथा अस्माभिः पठितं मध्यमपुरुषे तिप्रत्ययस्य एक स्तिप् स अस्ति तर्हि एका एक अपृक्तप्रत्ययः अस्ति चेत् तत्र हल् वर्णस्य लोपः भवति. तत्र अपृक्तं हल् नाम तत् अपृक्तं यत् प्रत्ययः अस्ति तस्य लोपः भवति नाम लङ्लकारस्य तकारः तकारः तस्य लोपः भवति इति अस्माकं परिचितं सूत्रमस्ति. अस्तु तर्हि अत्र सूत्रस्य प्रसक्तिः कुत्र? तत्र विजयमहोदय अग्रे को अस्ति इदानीं? विजयमहोदय आगच्छति वा? पठतु.
आम् जि आगच्छति.
आम् महोदय.
तत्र
अग्रे अत्र योज
खलु भगिनि प्रथमबिन्दुः हलन्तदातवः हलन्तदातुतः
सि वा सि सि न
न न अत्र हल्याभ्यो दीर्घसूति प्रथम हल् सूत्रम् अस्ति खलु तस्य अग्रे अस्ति समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र तावत् पठतु.
हल् सन्धिः विधेय न वा अपृत एकाल् प्रत्यय
अग्रे अग्रे
अग्रे अत्र योजने विधौ सोपनत्रयं वर्तते वा
न प्रथमबिन्दुः अस्ति खलु अधः
हलन्तेभ्यो धातुभ्यः ति सि सम्बन्धिनां प्रत्ययानाम्
अपृतप्रत्ययानि वा सूत्रमस्ति तस्य तस्यान्तरमस्ति समग्रदृष्ट्या सूत्रमभवत्
समग्रदृष्ट्या सूत्रस्य प्रसक्तिः कुत्र इति
तत्रैव
प्रथमबिन्दुः हलन्तधातुतः लङ् लकारस्य सीति च प्रत्ययोः परयोः अत्र इस् इत् इत्यनयोः लोपो भवति यथा अरुणद् योगः इत् अरुणद् अरुणद् परिवर्तनं
सर्वत्र लोपः एव भवति सकारस्य सकारस्य स्थाने
ओ अभिनद् अभिनद् योगः इत् अभिनद् अभिनद् योगः इस् इस् भवति अभिनद् अहन् योगः इत् अहन् योगः इस् अहन् अघोग् योगः इत् अघोग् अघोग् योगः इत् अघोग् असंस्त् योगः इत् असंस्त् संस्त् योगः इत् असंस्त् अग्रे पठामि वा महोदय. हलन्त कात् तु प्रत्ययः तत्र उकारः
महोदय भवत्या ध्वनिः न आगच्छति पुनः.
अनेन हलन्तप्रातिपदिकानाम् एकवचने प्रथमाविभक्त्यन्तपदानां विसर्गो नास्ति उदाहरणार्थं सुहृत्योग इस् सुहृदेव मरुत्योगः इस् मरुत् वणिज्योगः इस् वणिज्य सुप्रत्यय अस्ति किल अत्र उकारः उत्प्रेतजननासिक इत्यनेन अपगच्छति अत्र इस् एव अवशिष्टम् अतः तस्य प्रदत्तस्य अस्ति ई सकारः लोपो भवति अतः सुकृत्मसूत्रणि इति एवं रूपं मम कृते वा
भवत्या कृते अस्ति
न न सर्वे म्यूट् मध्ये आसन् चेत् तत्र ध्वनिः न आगच्छति
भवान् म्यूट् करोतु महोदय भवान् म्यूट् करोतु
दीर्घद्यान्तात् नाम स्त्रीलिङ्गे दीर्घ इकारान्तात् प्रातिपदिकात् नदी योगः सु नदी योगः इस् नदी ओ दीर्घबन्धात् नाम स्त्रीलिङ्गे दीर्घ आकारान्तात् प्रातिपदिकात् लता योगः सु लता योग इस् लता एव इस् अपगच्छति तदेव अग्रे पठामि भवत्या अत्र किमपि नास्ति उक्तं पूर्वमेव उक्तं किल लङ्लकारस्य प्रसङ्गः अधुना प्रश्नः उदेति पठामि वा कोऽपि पठति वा
अस्तु तर्हि किमस्ति हल्याभ्यो दीर्घात् सुतिचि प्रत्यम् सूत्रस्य प्रथमप्रसङ्गः अस्ति लङ्लकारस्य स प्रत्ययेषु यत्र अपृक् भवति तत्र यथा तथा सकारसकारस्य लोपः भवति तदनन्तरं द्वितीयप्रसङ्गः अस्ति समा तत्र उक्तं हलन्तप्रातिपदिकं तदनन्तरं सुप्रत्ययः अस्ति चेत् तस्य उकारः गच्छति चेत् सु एव स एव अवशिष्यति अतः तत्र प्रसङ्गः भवति सकारलोपः भवति अतः सूरे तत्र विसर्गः न दृश्यते तर्हि सकारस्य लोपः भवति तदनन्तरं स्त्रीलिङ्ग आकारान्तशब्देषु लतायोगः सु लता एव भवति विसर्गः न भवति तथैव नदीयोगः सु नदी एव भवति सकार अत्र सर्वत्र एक एव सू एकम् एकमेव सूत्रं कार्यं करोति हल्याभ्यो दीर्घा सुतिचि पृष्टं येन अपृक्तसकारसकारस्य लोपः भवति अतः विसर्गः अपि किमपि न आगच्छति इति अस्ति तर्हि इदानीं पर्यन्तम् अस्ति अत्र धातुविषयः अस्ति अतः केवलं लङ्लकारस्य प्रसङ्गः अस्ति अत्र प्रातिपदिकस्य प्रसङ्गः न भवति अस्तु तर्हि लङ्लकारस्य प्रसङ्गः इति वयम् अग्रे पठामः कोऽपः पठति अस्तु मीनामहोदय पठतु
लङ्लकारस्य प्रसङ्गः अधुना प्रश्नः उदेति कुत्र कुत्र लङ्लकारे इत् इस् इत्यनयोः लोपः भवति हल्न्याभ्यो दीर्घात् सुतिश्च अपृक्तं हल् इति सूत्रस्य प्रसक्तिः यत्र तत्रैव तत्रैव ओके ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः इदमपि वक्तव्यं यत् धातु तिङ् प्रत्ययोः मध्ये कोऽपि अजन्तप्रत्ययः न अगच्छेत् अजन्तप्रत्ययः आयाति चेत् तिङ् प्रत्ययात् प्राक् हल् वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति प्रत्ययात् प्राक् हल् वर्णः स्यात् हल्न्याभ्यो इह इह सर्वे विकरणप्रत्ययाः अजन्ताः अतः मध्ये विकरणप्रत्ययः न स्यात् अन्तिम न गृहीतः मया अधुना कुत्र कुत्र लङ्लकारे सकारतकारयोः लोपः अहल्याभ्यः दीर्घाश्रुति अपृत्तम् इति सूत्रेण भवति इति ज्ञातम्. तत्र सूत्रस्य प्रसक्तिः यदा धातुः हलन्तः यदा धातुः हलन्तः भवति तत्र तकारः सकारः अपृत्तसकारः तकारः लङ् प्रत्यय लङ् प्रकारे तु लोपः भवति. यदि धातु तिङ् प्रत्ययोः मध्ये कोऽपि अजन्तप्रत्ययः न अगच्छेत् न अगच्छेत् या अत्र लङ्लकारः लङ्लकारे प्रत्ययः सकारसकारः लोपः पृक्त प्रत्ययलकार सकार तकारसकारः लोपः यत्र धातु तिङ् प्रत्यय मध्ये कोऽपि अजन्तप्रत्ययः न गच्छति चेत् लोपः अजन्तप्रत्ययः आयाति चेत् तिङ् प्रत्ययात् प्राक् हल् वर्णः नास्ति तिङ् प्रत्ययात् प्राक् हल् वर्णः नास्ति अतः सूत्रस्य प्रसक्तिः नास्ति. तत्र नवगतं तत् वाक्यम्
अत्र ब्रह्मात्मकरूपेण लिखितमस्ति अस्य किमपि कस्यापि आवश्यकता नास्ति. तिङ् प्रत्ययः पश्यतु यत् तकारः सकारः अस्ति तस्मात् साक्षात् पूर्वं यः अङ्गम् अस्ति तस्य अन्तिमवर्णः हलन्तः अस्ति चेत् सूत्रस्य कायं प्रसक्तिः भवति.
तत् अवगतं
तदेव अस्ति अन्यत् सर्वं किमपि तस्य भ्रमात्मकरूपेण लिखितमस्ति तत्र केवलं सकारः अस्ति तस्मात् पूर्वं हलन्तम् अङ्गम् अस्ति चेदेव कार्यं भवति अजन्त अस्ति चेत् सूत्रस्य प्रसक्तिः नास्ति. इदानीं प्रश्नः भवति कस्मिन् कस्मिन् गणे हलन्त अङ्गम् अस्ति महोदय भवती एव वदतु. अस्माकं दशगणाः सन्ति खलु कस्मिन् कस्मिन् गणे अङ्गं हलन्तं भवितुं शक्नोति?
द्वादिगणे नास्ति द्वादिन द्वादिन अदादि
अदादि भवितुं शक्नोति
अदादिगणे भवितुं शक्यं जुहोत्यादिगणे भवितुं शक्यम्
अग्रे
रुदादिगणे श्ना प्रत्यय तत्र न भवितुं शक्यम् आकारः भवति तदेव अदादि जुहोत्यादि रुदादि एव.
अपि च एकमस्ति यङ्लुकि यङ्लुकि यतोहि यङ् लुक् यदस्ति तदेव अदादिगणीयवत् अस्ति अतः यङ् लुक् यत्र अस्ति नाम आहत्य अदादिगणीय जुहोत्यादिगणीय रुधादिगण यङ् लुक् एतान् अतिरिच्य सर्वत्र अङ्गम् अदन्तम् अङ्गम् अजन्तम् अस्ति द्वादिगणे अजन्तम् अस्ति तत्र किमस्ति दिवादिगणे अपि अजन्तमस्ति अदन्तमस्ति स्वादिगणे उकार अस्ति अन्ते स्तनादिगणे उकार अस्ति अन्ते तुदादिगणे अकार अस्ति त्र्यादिगणे आकार अस्ति चुरादिगणे अपि अकार अस्ति अतः केवलम् अहदादिगणे ज्योत्यादिगणे रुदादिगणे यङ्लुपि सार्वधातुकलकारेषु इति अस्ति. सर्वे अवगच्छन्ति वा? अत्र एव अस्य सूत्रस्य प्रसक्तिः भवति यतोहि अत्र एव तिङ् प्रत्यय यत् अङ्गं पश्यति तद् अङ्गं हलन्तमस्ति. अवगच्छन्ति वा?
आं महोदय.
अस्तु अग्रे पठतु महोदय.
अदादिगणेः शपः लुक् लोपः भवति अतः धातुः हलन्तः चेत् हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इति सूत्रस्य प्रसक्तिः. जुहोत्यादिगणे शपः श्लु लोपः भवति अतः धातुः हलन्तः चेत् तत्रापि सूत्रस्य प्रसक्तिः. रुदादिगणे विकरणप्रत्ययः धातोः मध्ये रुन्द् आयाति, अतः धातुः हलन्तः चेत् सूत्रस्य अस्ति एव. रुदादिगणीयाः धातवः सर्वे हलन्ताः. यङ् लुकि विकरणप्रत्ययः न भवति, अतः धातुः हलन्तः चेत् अत्रापि सूत्रस्य प्रसक्तिः. यङ् लुकि इति किं महोदय?
भिन्नप्रकरणमस्ति, अग्रे पश्यामः. अत्र अग्रे एव वयं पश्यामः. तत्रापि यङ् लुक् धातुः अस्ति, तत्रापि विकरणप्रत्ययः नास्ति, अतः तत्रापि हलन्त भवति चेत् लोपः भवति. नाम
अत्र यङ् लुक् इति उदाहरणं चेत् तत्र दरि दृश्यते इत्युक्ते तत्र वारं वारं पश्यामि इति अर्थः आगच्छति खलु भगिनि, खलु जि, खलु महोदय?
सत्यं. तर्हि अत्र तत्र पट् धातुः अस्ति खलु, पट् धातु, पट् धातु तत्र पापट्टि इति रूपं भवति, अतः वारं वारं पठति तस्मिन् अर्थे पापट्टि इति रूपं भवति. तत्र अपि तत्र विकरणप्रत्ययः, तत्र विकरणप्रत्ययः नास्ति, अतः तत्र अपि तकारसकारी भवति चेत् लोपः भवति. तर्हि एतत् सर्वम् अस्ति. तर्हि एतत् अत्र अत्र प्रसङ्गः भवति. इदानीम् अग्रे वयं पठामः प्रसङ्गः भवति चेत् अग्रे कार्यं कथं भवति. प्रथमः तु लोपः भवति, तदनन्तरं लोपानन्तरं किं करणीयं इति वयम् अग्रे पश्यामः. एतावत्पर्यन्तम् इदानीं समयः समाप्तः. एतावत्पर्यन्तं कस्यापि प्रश्नः अस्ति वा?
नास्ति, किमपि नास्ति.
अस्तु.